गुरुब्रह्मा गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। सर्वेभ्यो न सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र अन्वयव्यभिचारः, तत्र अन्वयव्यतिरेकसहचारः अपि अन्वयव्यतिरेकव्यभिचारः इति। तत्र अन्वयसहचारः, तत्र यत्र एकः अस्ति तत्र द्वितीयः अपि अस्ति। तत्र वयं पठितवन्तः तत्र यस्मिन् सति कार्यं भवति इति यदासीत् तद् भागः, नाम अस्माकं मूलविषयत् अस्ति तत्र कारणम् अपि कार्यं तयोः मध्ये कीदृशः सम्बन्धः, तत्र कार्यकारणसम्बन्धस्य विषये चर्चा भवति तत्र प्रवर्तमाना अस्ति। तत्र कारणम् अपि कार्यं तादृशसम्बन्धः अस्ति इति कथं निर्धारितुं शक्नुमः। तत्र वयं चिन्तयामः तत्र यत्र कारणम् इति यत् अभिमतम् अस्ति तत्र अभिमतपदार्थः कारणम् इति यत् चिन्तयामः कार्यं प्रति, तत्र कीदृशसम्बन्धः भवेत् नाम तत्र कारणम् अस्ति चेत् कार्यं भवति, कारणं नास्ति चेत् कार्यं न भवति, तादृशः सम्बन्धः भवेत् इति। अतः तत्र यस्मिन् सति कार्यम् इति तस्य वयम् अवगतवन्तः तत्र सहचारः इति नामकरणं, नाम तत्र अस्ति यद् यत्र एकमस्ति तत्र द्वितीयमपि अस्ति चेत् वयं तत्र अन्वयसहचारः इति उक्तवन्तः। अपि तत्र व्यतिरेकसहचारः इति आसीत्, तत्र कोऽपि स्मरति वा तत्र भेदः कः? अथवा अन्वयसहचारः वदतु भगिनि, शोभवनि वदतु।
तत्र अभावयोः समानाधिकरण्यम् इति दृष्टवन्तः, यथा भावयोः समानाधिकरण्यम् अन्वयसहचारः इत्युक्ते यस्मिन् सति अन्यत् भवति इति, कारणे सति कार्यं भवति इति, तथा अभावयोः समानाधिकरण्यम् इत्युक्ते व्यतिरेकसहचारः इत्युक्ते यस्मिन् असति अन्यत् न भवति इति, यस्मिन् कारणं कारणे असति कार्यं न भवति
नाम तत्र
इति अभावः,
तत्र अभावद्वयोः तत्र सहचारः,
अभावद्वयोः
अभावपदार्थयोः सहचारः समानाधिकरणीयम्
इत्युक्ते पृथ्वी नास्ति यत्र तथा तत्र गन्धः अपि नास्ति इति अभावः,
यत्र पृथ्वी नास्ति, समीचीनं, यत्र पृथ्वी नास्ति तत्र गन्धः अपि नास्ति इति, तत्र व्यतिरेकसहचारः, तत्र पृथिव्याः अभावः सति तत्र अभावे सति तत्र गन्धस्य अभावः अपि वर्तते इति समीचीनं। अतः तत्र वयं दृष्टवन्तः तत्र अन्वयसहचारः, अन्वय तत्र भावपदार्थयोः समानाधिकरणं, व्यतिरेकसहचारः तत्र अभावयोः समानाधिकरण्यम् इति। समीचीनं। अपि इदानीं तत्र एकवारं तत्र व्यतिरेकसहचार इति पदार्थनिरूपणं तथा आरभ्य एकवारं पठामः शीघ्रमेव, यतोहि तत्र एतद् गतवर्गे पठितवन्तः, किन्तु एकवारं पठित्वा तदनन्तरं व्यभिचारः कुर्मश्चेत् सुलभतया स्मरणं भवति इति चिन्तयामि। अस्तु तर्हि तत्र अस्तु तत्र विमला भगिनी आरम्भं करोति वा तत्र व्यतिरेकसहचार इति पदार्थनिरूपणम्?
आं महोदय, अत्र व्यतिरेकसहचारः इति पदार्थनिरूपणं, यत्र पृथिवी नास्ति तत्र गन्धोऽपि नास्ति इति चिन्तनम्, अभावौ आदाय प्रवर्तते इति अयं व्यतिरेकसहचारः इति उच्यते। व्यतिरेकौ अभावौ पृथिवी अभावगन्ध अभावरूपौ तयोः विद्यमानस्त्वं सामानाधिकरण्यं चादाय इह चिन्त्यते इति अयं व्यतिरेकसहचारः। एवञ्च पूर्वोक्त अन्वयसहचारः व्यतिरेकसहचारश्च ययोः वर्तते तयोः कार्यकारण अभावः निश्चितो भवति। अत्र अस्माभिः प्रशंसया अन्वयसहचारः इति चर्चितं, यत्र द्वावपि समानाधिकरणे सन्ति, अपि च ते सन्ति भावः इति, गन्धः अस्ति पृथिवी अस्ति, द्वावपि समानाधिकरणत्वेन पृथिव्यां सन्ति, तत् अन्वयसहचारः इति। अत्र अभावस्य विषये कथितं, यदि पृथिवी नास्ति गन्धः अपि नास्ति, यत्र गन्धः नास्ति पृथिवी अपि नास्ति इति, तेषाम् अभावः यत्र वर्तते समानाधिकरणे तत् अभावम् आदाय अभावौ आदाय व्यतिरेकसहचारः इति उच्यते। यत्र कुत्रापि अन्वयसहचारः अस्ति अपि च व्यतिरेकसहचारः अस्ति तयोः कार्यकारणभावः इति निश्चितं निश्चितेन कथितुं शक्नुमः।
तत्र एव कार्यकारणभावः
अस्ति अस्ति
इति निश्चयेन वक्तुं शक्नुमः समीचीनम्।
अस्तु महोदय,
कार्यकारणभावः नाम तत्र अतः तत्र कार्यकारणभावः निश्चितः भवति इति, तत्र अन्वयः कुत्र अस्ति चेत् तत्र यस्मिन् सति कार्यं भवति यस्मिन् असति कार्यं
न भवति
तत् तस्य कारणम् इति अवधार्यते। नाम तत्र कदा वयं तत्र एषः पदार्थः अन्यं पदार्थं प्रति कारणम् इति कथं वयं वक्तुं शक्नुमः, यदा तत्र कारणम् इति यत् चिन्तितः पदार्थः यदि सः पदार्थः वर्तते तदा कार्यं भवति, अपि यः यदा एषः पदार्थः नास्ति तदा कार्यं न
उत्पद्यते,
तदा एव वयं तत्र कार्यकरणसम्बन्धः भवति इति निश्चयेन वक्तुं शक्नुमः। अतः अन्वयसहचारः अपि भवेत्, व्यतिरेकसहचारः अपि भवेत्, अतः एव तत्र सहचारश्च ययोः वर्तते, अन्वयसहचारः व्यतिरेकसहचारश्च ययोः वर्तते तयोः कार्यकारणभावः निश्चितः भवति इति। समीचीनम्, अस्तु समीचीनं भगिनी, अस्तु अग्रे सरम तर्हि अग्रे इदानीं तत्र योगेन्द्रमहोदय अग्रे पठति वा।
अन्वयव्यतिरेकव्यभिचारौ एतद् वैपरीत्येन कारणत्वेन अभिमते सत्य अपि कार्योत्पत्तिः यत्र न भवति तत्र कारणस्य अन्वयः विद्यमानत्वं यद्यपि वर्तते परं कार्यस्य विद्यमानत्वं नास्ति इति अयम् अन्वयव्यभिचारः इति उच्यते। इह हि कारणत्वेन अभिमतस्य सत्त्वे अपि कार्यत्वेन अभिमतस्य असत्त्वम्, एवं कारणत्वेन अभिमतस्य असत्त्वे अपि कार्यत्वेन अभिमतस्य उत्पत्तिः व्यतिरेकव्यभिचारः इति उच्यते। यथा तन्तुः घटं प्रति कारणं न वा इति सन्देहे तन्तौ सत्य अपि घटः न उत्पद्यते इति ज्ञानवतः तत् अन्वयव्यभिचारज्ञानं भवति।
हा तावत्पर्यन्तं महोदय, अस्तु तर्हि तत्र इदानीं पङ्क्तिशः पठामः।
एतत् वैपरीत्येन कारणत्वेन अभिमते सत्यापि कार्योत्पत्तिः कार्योत्पत्तिः यत्र न भवति तत्र कारणस्य अन्वयः विद्यमानत्वं यद्यपि वर्तते परं कार्यस्य विद्यमानत्वं नास्ति इति अयम् अन्वयव्यभिचारः इति उच्यते.
हा तावत्पर्यन्तं हा एकवारं वदतु महोदय.
यत्र अन्वयसहचरः अस्ति तत् विरुद्धार्थः अस्ति इति अहं चिन्तयामि.
किन्तु हा एकवारं समीचीनं
कारणम् अस्ति परन्तु
कारणत्वेन न कारणत्वेन इति कारणम् इति न तत्र एकमेकं पठतु महोदय. कारणत्वेन
कारणत्वेन अभिमते सत्य अपि कार्योत्पत्तिः
सति अपि नाम सत्य
सति अपि
सति अपि तत्र सतिसप्तमी सतिसप्तमी खलु. अभिमते अभिमते तत्र विभक्ति का तत्र
सप्तमी विभक्ति
सप्तमी हा प्रथमविभक्ति
अभिमतः अभिमतः
अभिमतः अभिमतं समीचीनं हा नाम कारणत्वेन अभिमतः नाम अथवा कारणत्वेन अभिमतं नाम यत् कारणम् इति चिन्तयामः एतत् कारणम् इति चिन्तनम् अथवा सन्देहः ओ एतत् कारणं भवितुम् अर्हति इति यत्र तादृशचिन्तनमस्ति नाम अभिमतः तद् कारणं भवितुम् अर्हति कारणम् इति चिन्तयामः इति तद् अस्ति कारणमिति
चिन्तनमपि
एषः पदार्थः एव कारणमिति
अस्माकं
सन्देहः अस्ति भवितुमर्हति हा इति स तादृशपदार्थः अस्ति अपि तदस्ति किन्तु किं भवति
कार्योत्पत्तिः यत्र न भवति
किन्तु कार्योत्पत्तिः तत्र न भवति वयं चिन्तयामः तत्र एषः कारणं भवितुम् अर्हति इति चिन्तयामः किन्तु कार्यं तु तत्र न भवति तत्र किं भवति
तत्र कारणस्य अन्वयः
विद्यमानत्वं
यद्य अपि वर्तते परं कार्यस्य
परन्तु
वर्तते परन्तु कार्यस्य विद्यमानत्वं नास्ति इति अयम् अन्वयव्यभिचारः
इति उच्यते
तत्र
अन्वयसहचारः तत्र किम् अस्ति
अन्वयसहचारः अस्ति तदा कार्यं कारणमस्ति अपि कार्यमस्ति परन्तु अन्वयव्यतिरेकव्यभिचारे किं भवति
अन्वयव्यतिरेकव्यभिचार न केवलम्
अन्वयव्यभिचारः
तत्र किं भवति
कारणं तु अस्ति पण कार्योत्पत्तिः नास्ति कार्यस्य विद्यमानत्वं नास्ति
हा इति स्थितिः समीचीनं महोदय तत्र अन्वयः सहचारः तत्र कारणत्वेन अभिमतम् अस्ति कार्योत्पत्तिः अपि भवति तत्र अन्वयसहचारः यत्र कारणत्वेन अभिमतः पदार्थः अस्ति कार्योत्पत्तिः न भवति तत्र
अन्वयव्यभिचारः
इति उच्यते अग्रे
इह हि कारणत्वेन अभिमतस्य सत्त्वे अपि कार्यत्वेन अभिमतस्य असत्त्वम्
अभिमतम् इति अत्र सर्वत्र चिन्तयतु यत् पदार्थद्वयमस्ति वयं चिन्तयामः प्रथमपदार्थः कारणं द्वितीयपदार्थः कार्यम् इति अस्माकं चिन्तनम् अस्ति सन्देहः अस्ति अतः कारणत्वेन अभिमतस्य पदार्थः तु अस्ति अभिमतः पदार्थः
कार्यत्वेन अभिमतस्य पदार्थः नास्ति
तत्र वयं तत्र अन्वयव्यभिचारः इति वदामः. इदानीं एतावत् भवान् पठितवन्तः, इदानीं तत्र उदाहरणम् अत्र दत्तमस्ति एतद् वाक्यं, तर्हि उदाहरणवाक्यं पठतु महोदय.
यथा तन्तुः घटं प्रति कारणं न वा इति सन्देहे तन्तो सत्य अपि घटः न उत्पद्यते इति ज्ञानवतः तत् अन्वयव्यभिचारज्ञानं भवति. उदाहरणरूपेण यदा तन्तो अस्ति
तत्र तत्र कारणं किं कार्यं किम् इति अस्माकं सन्देहः किम् अस्ति अत्र.
अस्माकं सन्देहः अस्ति तन्तु घटं प्रति कारणं न वा इति सन्देहः.
हा तर्हि कार्यं किम् अत्र, कारणं तन्तु,
कार्यम् अस्ति घटं,
घटः
कारणमस्ति तन्तु,
तन्तुः. हा वयं चिन्तयामः तन्तुना घटः उत्पद्यते इति अस्माकं चिन्तनम् अस्ति, सन्देहः अस्ति. तत्र किन्तु तत्र स्थितिः का
स्थितिः अस्ति तन्तु सति अपि घटः न उत्पद्यते.
इति यदा इति स्थितिः, इदानीं तादृशी स्थितिः अस्ति इति यदि ज्ञानं भवति तदा तत्र तस्य तादृशज्ञानं यस्मिन् उद्भवति तस्य ज्ञानं कीदृशम् अस्ति, तस्य
अन्वयव्यभिचारज्ञानम् इति.
तस्य ज्ञानं कीदृशज्ञानम्? अन्वयव्यभिचारज्ञानं, यतोहि तत्र कारणत्वेन अभिमतस्य अस्तित्वमस्ति किन्तु कार्यत्वेन अभिमतस्य असत्त्वम् इति. अतः तत्र अन्वयव्यभिचारः इति भवति. तन्तुः अस्ति किन्तु घटः न उत्पद्यते
इति एव रीत्या यदा तन्तौ असति अपि घटः उत्पद्यते.
अस्तु अस्तु अस्तु, तत्र भवान् एतावत् समीचीनं महोदय. एकः अंशः पठितः इदानीम् अन्वयव्यभिचारः इति. इदानीम् अन्य कोऽपि तत्र अन्वय तत्र व्यतिरेकव्यभिचारः कुर्यात्.
अस्तु धन्यवादः,
तत्र सम्यक् भवति. धन्यवादः महोदय.
अस्तु
अस्तु अग्रे तरः. तर्हि तत्र उषा भगिनी अग्रे पठति वा तत्र एवं कारणत्वेन इति.
आं महोदय. एवं कारणत्वेन अभिमतस्य असत्त्वे अपि कार्यत्वेन अभिमतस्य उत्पत्तिः भवति, तत् व्यतिरेकव्यभिचारः इति उच्यते. एवं कारणत्वेन अभिमतस्य असत्त्वे अपि अस्माकं चिन्तनं यत् कारणम् इति अस्माकं चिन्तनम् अस्ति तत् नास्ति असत्त्वे अपि. कार्यत्वेन अभिमतस्य उत्पत्तिः भवति. अस्माकं चिन्तनस्य कार्यम् इति घटः भवति, घटः उत्पत्तिः भवति, कार्यत्वेन अभिमतस्य उत्पत्तिः भवति. तत् यत् अस्माकं चिन्तनस्य कारणं नास्ति परन्तु कार्यं तु विद्यते, उत्पत्तिः अस्ति, तत् व्यतिरेकव्यभिचारः इति उच्यते.
हा व्यतिरेकव्यभिचारः इति उच्यते, समीचीनं. हा तत्र एवम् इति तत्र
एवं घटोत्पत्तिदेशे तन्तौ असति अपि घटः उत्पद्यते इति इति जानानस्य तत् व्यतिरेकव्यभिचारज्ञानं भवति. अत्र व्यतिरेकव्यभिचार उदाहरणं दत्तम्. एवं घट उत्पत्तिदेशे घट उत्पत्तिकाले तन्तौ असति, अस्माकं चिन्तनं तन्तु इति कारणम् इति अस्माकं चिन्तनं, तत् तन्तु नास्ति परन्तु अपि घटः तन्तौ असति अपि घटः उत्पद्यते. घटः इति अस्माकं कार्यस्य चिन्तनं, कार्यं दृश्यते, घटः उत्पद्यते इति ज्ञानं व्यतिरेकव्यभिचारज्ञानम् इति भवति.
हा तर्हि तत्र यदि वयं केवलं तत्र लघुचित्रं कुर्मश्चेत् तत्र किमस्ति, तत्र पटः तत्र कारणम् इति यत् चिन्तयामः, कारणम् इति केवलं वदामः कार्यं, किन्तु साक्षात् कार्यं इति नास्ति, तत्र केवलं सन्देहः अस्ति. कारणमपि कार्यं, तत्र यत्र कारणम् अस्ति किन्तु कार्योत्पत्तिः न भवति तत्र किमस्ति? तत्र
अन्वयव्यभिचारः.
समीचीनम्. अपि यत्र कारणं नास्ति किन्तु कार्यम् उत्पद्यते,
व्यतिरेक व्यभिचारः.
व्यतिरेकव्यभिचारः, समीचीनम्. अपि समीचीनम्. इदानीं तत्र यत्र कारणमस्ति अपि कार्यमपि अस्ति तदस्ति
अन्वयसहचारक.
उत्तमं भगिनि. अस्तु, अन्तिमं, यत्र कारणं नास्ति अपि कार्यमपि
नास्ति व्यतिरेकसहचारक.
सहचारः इति भवति, तावदेव. अस्तु, समीचीनं भगिनि. अस्तु, अन्य तत्र
101001
तथा एव अस्ति. अस्तु, समीचीनं. अस्तु, इदानीम् अग्रे तत्र पद्मा भगिनी अग्रे पठति वा?
अस्तु, पठामि. अन्वयव्यभिचारज्ञानं भवति चेत् अन्वयसहचारज्ञानं न उत्पद्यते. कथं हि तन्तौ सत्यपि घटः न उत्पद्यते इति अन्वयव्यभिचारज्ञानवतः पुरुषस्य तन्तौ सति पटः उत्पद्यते इति अन्वयसहचारज्ञानं सम्भवति. एवं व्यतिरेकव्यभिचारज्ञानं भवति चेत् व्यतिरेकसहचारज्ञानं न उत्पद्यते. कपाले अविद्यमाने अपि पट उत्पत्तिः इति व्यतिरेकव्यभिचारे गृहीते कपाले अविद्यमाने न पटोत्पादः इति व्यतिरेकसहचारः न गृह्यते एव.
तत्र प्रायशः एकनिमिष भगिनि, तत्र तन्तौ सत्यपि घटः प्रायशः तत्र द्वितीये मुद्रणे तत्र एकनिमिष भगिनि तत्र मुद्रणदोषः अस्ति वा इति चिन्तनम्. एकनिमिषः, अस्तु अस्तु, तर्हि पठतु भगिनि. पश्यामः तत्र स्थितिः का इति. वदतु भगिनि.
अन्वयव्यभिचारज्ञानं भवति चेत् अन्वयसहचारज्ञानं न उत्पद्यते इति वयं पूर्वं पठितवन्तः. अन्वयव्यभिचारः इत्युक्ते तत्र कारणम् अस्ति परन्तु कार्यं नास्ति चेत् अन्वयव्यभिचारः इति वयं पठितवन्तः. तत्र कारणं तत्र तन्तुः अस्ति परन्तु घट उत्पत्तिः नास्ति चेत् तत्र अन्वयव्यभिचारः इति वयं पठितवन्तः. तत्र तादृशज्ञानं भवति चेत् अन्वयसहचारज्ञानं न उत्पद्यते इति. अन्वयसहचारज्ञानम् इत्युक्ते कारणमस्ति कार्यमपि अस्ति तद् अन्वयसहचारज्ञानम् इति. तत्र तन्तुः अस्ति पटः पट उत्पत्तिः अपि अस्ति तद् अन्वयसहचारज्ञानम्. एतादृशं तत् एक उदाहरणरूपेण दत्तवन्तः. तन्तौ सत्यपि घटः न उत्पद्यते इति अन्वयव्यभिचारज्ञानवतः तदेव अन्वयव्यभिचाररूपेण. तन्तुः अस्ति परन्तु घट उत्पत्तिः नास्ति चेत् तद् अन्वयव्यभिचारः. तादृशज्ञानम् एकस्य मनसि अस्ति चेत् तादृशपुरुषस्य एतत् ज्ञानं न भवति. एतादृशज्ञानम् इत्युक्ते तन्तौ सति तन्तुः अस्ति परन्तु पट उत्पत्तिः पटः उत्पद्यते इति अन्वयसहचारज्ञानं सम्भवति एव इति दत्तवन्तः. एवम् एतादृश
तत्र किञ्चित् तत्र सम्यक् रीत्या अवगन्तुं न शक्नोमि इति चिन्तयामि भगिनि. नाम तत्र न उत्पद्यते इति उक्तं किन्तु सम्भवति इति पुनः उक्तं खलु.
आम् तत्र तन्तुः अस्ति परन्तु घटः न उत्पद्यते इति एकस्य ज्ञानं भवति चेत् परन्तु तन्तुः अस्ति घटः पटः उत्पद्यते इति ज्ञानं सम्भवत्येव
इति एव प्रायशः अस्मिन् विषये तत्र चिन्तनं भवेत् किन्तु प्रायशः तत्र आशा का इत्युक्ते प्रायशः तत्र तन्तौ सत्यपि घटः न उत्पद्यते इति यस्य ज्ञानमस्ति तस्य तन्तौ सति घटः उत्पद्यते इति अन्वयसहचरज्ञानं नास्ति न उत्पद्यते किन्तु तन्तौ सति पटः उत्पद्यते इति ज्ञानं तत्तु उद्भवति किन्तु तन्तौ सति घटः उत्पद्यते इति ज्ञानं तस्मिन् न उत्पद्यते इति प्रायशः वक्तुम् इच्छति इति मन्ये.
आम् एतादृशं तन्तुः अस्ति तन्तुतः पटः एव उत्पद्यते इति एकस्य ज्ञानं सम्भवति चेत् तन्तुः अस्ति तस्मात् घटस्य उत्पत्तिः न भवति इति सामान्यतया भवति एव. अनन्तरम् एवं व्यतिरेकव्यभिचारज्ञानं भवति चेत् व्यतिरेकसहचारज्ञानं न उत्पद्यते इति दत्तवन्तः. व्यतिरेकव्यभिचारज्ञानम् इत्युक्ते व्यतिरेकव्यभिचारः इत्युक्ते कारणं नास्ति परन्तु कार्यं भवति तदेव. कपालः नास्ति इत्युक्ते कारणं नास्ति कपालः नास्ति परन्तु पटः उत्पत्तिः इति व्यतिरेकव्यभिचारं पटः उत्पत्तिः भवति एतादृशम् अस्ति चेत् तद् व्यतिरेकव्यभिचारः. एतादृशज्ञानम् एकस्य मनसि भवति चेत् कपालः नास्ति चेत् न पटः न उत्पद्यते इति व्यतिरेकरीत्या अपि सहचारभावः अपि तस्य मनसि भवत्येव. साधुवजी
एकनिमिषं भगिनि प्रायशः तत्र ज्ञानं तत्र प्रायशः भगिनि तत्र प्रायशः तत्र न सम्भवति इति प्रायशः भवेत् इति मन्ये. क्षम्यताम् क्षम्यताम् तत्र अहं किमपि कृतवान् तर्हि तत्र एकनिमिषः क्षम्यताम् भगिनी अहं चिन्तयामि प्रायशः अत्र न सम्भवति इति भवेत् इति मन्ये. यतोहि तत्र द्वितीय उदाहरणं पश्यामः तत्र एवम् इति ततः आरभ्य पुनरेकवारं पठतु भगिनि तत्र एतावत् पर्यन्तम् एवं
महोदय अहं किं किञ्चित् वदामि किम् अस्य विषये.
अस्तु अस्तु वदतु भगिनि वदतु.
अत्र कथं वा इति क्वश्चन् अस्ति महोदय. सम्भवति इति स्टेट्मेण्ट् नास्ति. कथं हि अन्वयसहचारज्ञानं सम्भवति इति कथम् इति क्वश्चन् मार्क् अस्ति महोदय.
समीचीनं धन्यवादः भगिनि. इदानीम् उत्तमम् अस्तु 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 समीचीनं धन्यवादः भगिनि. इदानीं तत्र मम तत्र क्लेशः निवारितः. अस्तु समीचीनं. अस्तु तर्हि पद्मा भगिनी
सम्भवति
कथं हि अन्वयसहचारज्ञानं सम्भवति. हा विमलभगिनी धन्यवादः. नाम तत्र यस्मिन् एषः घटः न उत्पद्यते इति ज्ञानेन तत्र पटः उत्पद्यते इति ज्ञानं सम्भवति वा? नाम तत्र नोत्पद्यते इत्येव ज्ञानम् अस्ति, अन्यत् उत्पद्यते इति प्रायशः तत्र तादृशज्ञानं प्रायशः नास्ति. केवलं तत्र तन्तुः घटः, तर्हि तन्तौ सत्यपि घटः न उत्पद्यते इति अन्वयव्यभिचारज्ञानं यस्य अस्ति तस्य तन्तौ सति पटः उत्पद्यते इति अन्वयसहचारज्ञानं भवति इति न वक्तुं शक्नुमः.
परन्तु तद् भवत्येव उदाहरणार्थम् अहं जानामि तद् तन्तुतः घटः उत्पत्तिः न भवति इति अहं जानामि चेत् तन्तुतः पटः एव उत्पद्यते इत्यपि अहं
जानामि. तद् भिन्नमस्ति नाम तत्र तन्तुः अस्ति किन्तु तेन घटः न उत्पादितः, तावदेव ज्ञानम् अस्ति. अग्रे गत्वा तन्तुविषये किमपि अन्यत् ज्ञानमस्ति चेत् अस्तु तन्तुतः पटः उत्पद्यते इति भवेत्, किन्तु एकेन ज्ञानेन द्वितीयं ज्ञानं न भवति इति वार्ता. नाम तत्र अन्वयसहचारज्ञानात् सहचारज्ञानात् क्षम्यताम् अन्वयव्यभिचारज्ञानात् अन्वयसहचारज्ञानम् उत्पद्यते इति तु नास्ति. नाम अन्वयव्यभिचारज्ञानं कारणम्, अन्वयसहचारज्ञानं कार्यम् इति नास्ति.
ओ अस्तु, ज्ञानमस्ति चेत् अन्वयसहचारज्ञानमपि भवेत् इति स्थितिः.
तेन व्यभिचारज्ञानेन सहचारज्ञानं भवति, नाम व्यभिचारज्ञानं सहचारज्ञानं जनयति इति नास्ति.
ओ अस्तु, समानं व्यतिरेकव्यभिचारज्ञानम् अस्ति चेत् व्यतिरेकव्यभिचारज्ञानमपि भवत्येव इति स्थितिः नास्ति.
व्यतिरेकव्यभिचारज्ञानं भवति चेत् व्यतिरेकसहचारज्ञानं जनयति इति नास्ति. उदाहरणं
कपालः नास्ति चेदपि, कपालः नास्ति परन्तु पट उत्पत्तिः इल कपालः अविद्यमाने सत्यपि पट उत्पत्तिः इति व्यतिरेकव्यभिचारस्य ज्ञानं न भवति.
न व्यभिचारे गृहीते नाम गृहीतः अस्ति, गृहीते सप्तमी व्यभिचारज्ञानः गृहीतः यदा भवति.
एतत् ज्ञानम् अस्ति चेत् कपालः विद्यमाने सति पट उत्पत्तिः न सम्भवति इति ज्ञानं भवेत् इति स्थितिः नास्ति.
नाम कपालस्य अभावः यदा अस्ति तदा पटस्य अभावः अपि अस्ति इति व्यतिरेकसहचारस्य ज्ञानं तेन भवति इति नास्ति. तत्र कारणकार्यभावः तयोः मध्ये नास्ति. अतः तत्र अन्वयव्यभिचारज्ञानात् अन्वयसहचारज्ञानं न उत्पद्यते, व्यतिरेकव्यभिचारज्ञानात् व्यतिरेकसहचारज्ञानं न भवति, नोत्पद्यते इति अस्ति. समीचीनं. अशोक महोदय प्रश्नः.
महोदय, द्वितीयवाक्यं कपाले अविद्यमाने न पट उत्पादः इति, तद् व्यतिरेकसहचार नास्ति खलु? तद् व्यतिरेकसहचार कपाल करेक्ट् करेक्ट् सम्यक् सम्यक्.
नाम अभावयोः सहचारः खलु महोदय? कपालाभावः
अवगच्छामि अवगच्छामि महोदय
कपालाभावः पटस्य अभावः अस्तु समीचीनम् अस्तु विमलभगिनी धन्यवादः तत्र मम मनसि क्लेशः आसीत् तत्र कथं मम मनसि न गतम् आसीत्
यदा कदापि तथा एव भवति महोदय स्वागतं स्वागतं
समीचीनं भगिनी अस्तु इदानीं नीता भगिनी इदानीं तत्र स्वशब्दैः एकवारम् अत्र किम् इति एकवारं वदतु भगिनि
अत्र
पुनरेकवारं पठित्वा यदि आवश्यकम् अस्ति चेत् एकवारं पठित्वा
अत्र अन्वयव्यभिचार ज्ञानात् न अन्वयसहचार ज्ञानम् इति अस्ति कथम् इति अन्वयव्यभिचारज्ञानम् अन्वयव्यभिचारज्ञानम् इत्युक्ते तत्र कारणः अस्ति किन्तु कार्य न उत्पद्यते कार्यं न भवति कारणः अस्ति कार्यं न भवति अन्वयव्यभिचारज्ञानम् तत्र कारणः अस्ति कारणं कारणः अस्ति कार्यं नास्ति इति ज्ञानात् कार्यम् अन्वयसहचार इति कार्यम् अपि अस्ति कारणम् अपि अस्ति कार्यम् अपि अस्ति इति ज्ञानं न उत्पद्यते इत्युक्ते यदा तन्तवः अन्वयव्यभिचारज्ञानम् इत्युक्ते तन्तवः सन्ति तन्तौ सति अपि घटः न उत्पद्यते अत्र अस्ति अन्वयव्यभिचारज्ञानं कारणः अस्ति कार्यं न उत्पद्यते तस्मात् तन्तौ अस्ति तन्तौ असति इत्युक्ते तन्तौ नास्ति परन्तु घटः उत्पद्यते इति न भवति इति ज्ञानं न उत्पद्यते तथा एवं प्रकारेण एव व्यतिरेकव्यभिचारज्ञानात् व्यतिरेकसहचारज्ञानं न उत्पद्यते व्यतिरेकव्यभिचारज्ञानम् इत्युक्ते कारणं नास्ति कार्यं भवति इति ज्ञानात् व्यतिरेकसहचारज्ञानम् इत्युक्ते कार्यम् अपि कारणमपि नास्ति कार्यम् अपि नास्ति इति ज्ञानं न उत्पद्यते तत्र उदाहरणार्थ व्यतिरेकव्यभिचारज्ञानं व्यतिरेकव्यभिचारज्ञानम् इत्युक्ते तन्तवः नास्ति परन्तु घटः उत्पद्यते तन्तवः नास्ति परन्तु घटः उत्पद्यते इति ज्ञानात् व्यतिरेकसहचारज्ञानम् व्यतिरेकसहचारज्ञानम् इत्युक्ते तत्र तन्त कारणम् अपि नास्ति कार्यम् अपि नास्ति इति ज्ञानं न निष्पद्यते अनन्तरं कपाले अविद्यमाने अपि घटोत्पत्ति इति व्यतिरेकव्यभिचार तत्र अत्र उदाहरणं दत्तमस्ति व्यतिरेकव्यभिचारस्य कपालः नास्ति इत्युक्ते कारणं नास्ति किन्तु कार्यं भवति पटः उत्पत्ति इति व्यतिरेकव्यभिचारे गृहीते कपाले अविद्यमाने कारणं नास्ति पटः अपि न निष्पद्यते कार्यम् अपि नास्ति इति व्यतिरेकसहचार न गृह्यते एव इत्युक्ते निष्कर्षेण अन्वयव्यभिचारज्ञानात् अन्वयसहचारज्ञानं न उत्पद्यते व्यतिरेकव्यभिचारज्ञानात् व्यतिरेकसहचारज्ञानं न उत्पद्यते
समीचीनं भगिनि अस्तु तर्हि तत्र अन्वयव्यभिचारज्ञानेन अन्वयसहचारज्ञानं न भवति अथवा अन्वयव्यभिचारज्ञानम् अन्वयसहचारज्ञानं न जनयति तथैव व्यतिरेकव्यभिचारज्ञानं व्यतिरेकसहचारज्ञानं न जनयति इति अस्ति अस्तु समीचीनम् अस्तु अग्रे नरसिंहगिरि महोदय अग्रे
आं महोदय आम् वल्लतः अन्वयव्यभिचारज्ञानात् न अन्वयसहचारज्ञानं व्यतिरेकव्यभिचारज्ञानात् न व्यतिरेकसहचारज्ञानम्, उभयविध सहचारज्ञाने अनुत्पन्ने तन्तुः घटं प्रति कारणमिति कारणता ज्ञानमपि न उत्पद्यते. अन्वयव्यभिचारज्ञानात् न अन्वयसहचारज्ञानम् इत्युक्ते यत्र अन्वयव्यभिचारज्ञानं नास्ति तत्र अन्वयसहचारज्ञानमपि न भवति. अन्वयव्यभिचारज्ञानात् इत्युक्ते अन्वयव्यभिचारज्ञानं यत्र अस्ति तत्र अन्वयसहचारज्ञानमपि न भवति.
अपि इति न, तत्र केवलम् अन्वयसहचारज्ञानं न भवति.
न भवति, हा न
भवति.
तथैव व्यतिरेकव्यभिचार ज्ञानमस्ति चेत् व्यतिरेकसहचारज्ञानं न भवति.
न भवति.
उभयविधसहचारज्ञाने इत्युक्ते अन्वयसहचार व्यतिरेकसहचार ज्ञाने अनुत्पन्ने नास्ति चेत् तन्तुः घटं प्रति कारणमिति कारणता ज्ञानमपि न उत्पद्यते. यत्र अन्वयसहचारज्ञानव्यतिरेकसहचारज्ञानं नास्ति चेत् तत्र कार्यकारणभाव घटं प्रति तन्तु घटं प्रति कारणम् इति कारणताज्ञानमपि न उत्पद्यते.
हा, तत्र कदा वदामः तत्र कारणमिति तत्र सहचाररूपेण तत्र कीदृशः सहचारः भवेत्, तत्र कार्यकारणभावः सम्बन्धः वर्तते इति यदि वक्तुम् इच्छामः.
द्वयमपि भवेत्, अन्वयसहचारज्ञानमपि भवेत्, अन्वयव्यभिचार अन्वयव्यतिरेक क्षम्यताम् अन्वयसहचारज्ञानम् अनन्तरं व्यतिरेकसहचारज्ञानम् अस्ति चेत् कार्यकारणभावः
अस्ति इति वक्तुं शक्नुमः. उत्तमं महोदय. हा, तथा एव. अतः तत्र उभयविधसहचारज्ञाने अनुत्पन्ने तत्र एकं नास्ति चेदपि तत्र एकविधसहचारज्ञानं नास्ति चेत् तत्र कारणभावः कारणताज्ञानं न भवति, कारणमिति न अङ्गीकर्तुं शक्नुमः, न उत्पद्यते. उत्तमं महोदय. हा, अतः उभयविधसहचारज्ञानं यत्र भवति तत्र एव, अतः यत्र नास्ति तत्र कारणताज्ञानं न भवति. अस्तु, समीचीनं महोदय. अस्तु अग्रे तत्र शुभ भगिनी.
धन्यवादः महोदय.
धन्यवादः महोदय.
आं महोदय. तत्र अपरोऽयं तत्र अपरः अयं विशेषः कारणत्वेन अभिमतस्य पदार्थस्य सत्त्वे अपि कदाचित् कार्योत्पत्तिः न भवति, यथा दण्डः, चक्रं, कपालः, इमानि घटकारणानि इति सर्वसम्मतं. परन्तु कपालद्वयसंयोगरूप कारणं न उत्पद्यते चेत् घटोत्पत्तिर्न भवति. तथापि तु दण्डादीनां कारणता न अपगच्छति. सर्वकारणसत्त्वे हि पदार्थेभ्यः कार्यम् उत्पद्यते. अस्तु, तत्र अपरः विशेषः अपि अस्ति. कारणत्वेन अभिमतस्य पदार्थस्य सत्त्वे अपि कदाचित् कार्योत्पत्तिः न भवति इति दृष्टवन्तः. कारणत्वेन कारणत्वं सत्यपि कदाचित् कार्योत्पत्तिः न भवति इति दृष्टवन्तः.
एतावत् न दृष्टवन्तः, एतावत् न दृष्टवन्तः. नाम अत्र
इत्युक्ते हा, एतावत् किं दृष्टवन्तः तत्र अन्वय अभिचारज्ञानम् इत्युक्ते कारणमस्ति, कार्यं न भवति. अन्वय अपि च व्यतिरेकसहचारज्ञानम् इत्युक्ते कारणं नास्ति, कार्यं भवति इति.
न न भगिनि, एकवारं मम मनसि भ्रमः. अस्तु, हा,
भ्रमात्मकः
अन्वयसहचारः कः?
अन्वय किम्? अन्वयसहचारः वा महोदय? अन्वयसहचारः कारणमस्ति, कार्यमपि भवति.
अस्तु, इदानीं व्यतिरेकसहचारः
व्यतिरेकसहचारे कार्यं व्यतिरेकसहचारे किं भवति तत्र कार्यमपि नास्ति कारणमपि नास्ति
कारणाभावः कार्यस्य अपि अभावः समीचीनम्
अभावः व्यतिरेकसहचार कार्यमपि कार्य तत्र अभावयोः एतत् नामकरणं कृतम् आसीत्
इदानीं तत्र अन्वयसहचारः व्यतिरेकसहचारः द्वयं मनसि स्थापितं नाम कारणम् अस्ति कार्यमपि अस्ति कारणं नास्ति कार्यं नास्ति यत्र एतादृशी स्थितिः अस्ति तत्र एव कार्यकारणभावः वर्तते इति
भवति
भवति इदानीं व्यभिचारः तत्र अन्वयव्यभिचारः किमस्ति तत्र
अन्वयव्यभिचारः इदानीं तत्र कारणमस्ति कार्यं न भवति
नास्ति इति अस्ति समीचीनम् इदानीं व्यतिरेकव्यभिचारः
चेत् घटः न भवति घटोपतिः
इदानीं व्यतिरेकव्यभिचारः
व्यतिरेकव्यभिचारे कारणं नास्ति किन्तु कार्यं भवति
भवति
तत्र कपाले असति पटः भवति इति
पटः भवति इति उत्तमं इदानीं समीचीनम् अस्तु इदानीं भ्रमः घटः इदानीं
तत्र किञ्चित्
न इदानीं इदानीं कारणत्वेन
इदानीम् अस्तु इदानीं कारणत्वेन अभिमतस्य पदार्थस्य सत्त्वे अपि सत्त्वे अपि इत्युक्ते कारणम् अस्ति इति तत्र खलु महोदय
कारणमस्ति
कदाचित् कार्योत्पत्तिर्न भवति
नाम पूर्वं किम् आसीत् पूर्वं भयं न ज्ञातवन्तः तत्र कारणकार्यभावः वर्तते न वा इति तस्मिन् स्थितौ तत्र अन्वयसहचारः अस्ति वा व्यतिरेकसहचारः अस्ति वा इति सर्वं द्रष्टव्यमस्ति इदानीं किं वयं जानीमः एतत् कारणमस्ति एतत् कार्यमस्ति इति जानीमः ज्ञानमस्ति अस्माकम्
अस्तु
किन्तु कदाचित् कार्यं न भवति
अस्तु इत्युक्ते अस्माकं ज्ञानमस्ति अयम् इदं कारणमस्ति चेत् तत् कार्यं भवति इति
इदानीं वयं जानीमः तयोः मध्ये कार्यकारणभावः सम्बन्धः वर्तते इति जानीमः
अस्तु
इति जानीमः किन्तु तथापि कारणमस्ति किन्तु कार्यं न भवति
अतः
तत्र नूतनस्थितिः
यथा दण्डः चक्रं कपालः इमानि ते सर्वे सन्ति घटकारणानि इति वयं जानीमः परन्तु कपालद्वयसंयोगरूप कारणं न उत्पद्यते चेत् घटोत्पत्तिः न भवति इदानीं तत्र कपालद्वयम् इति विषयः कपालद्वयं
नाम अस्तु एकनिमिष भगिनि तत्र दण्डः तत्र घटं प्रति कारणं खलु
दण्डः कारणं चक्रमपि
नाम दण्डः नास्ति चेत् घटः न उत्पद्यते चक्रमपि तथैव कारणमस्ति कपालः अपि कारणमस्ति घटं प्रति इति सर्वे अङ्गीकुर्वन्ति सर्वसम्मतम् अस्ति तत्र दण्डः कारणं चक्रमपि कारणं कपालः अपि कारणम् इति सर्वे अङ्गीकुर्वन्ति किन्तु कपालद्वयम् अस्ति इति अपि चिन्तयतु तत् कारणम् इति जानीमः अस्तु किन्तु किं भवेत् कपालद्वय
संयोगरूपकारणं न उत्पद्यते चेत् अस्तु कपालद्वयं स्तः किन्तु संयोगरूपकारणं न उत्पद्यते
अस्तु
कपालद्वयं कपालद्वयम् अस्ति किन्तु तयोः संयोजनम् एव न भवति चेत् घटस्य अथवा घटयोः
कपालयोः संयोगः भवति न भवति चेत् घटः न उत्पद्यते
न उत्पद् अस्तु इदानीं संयोगस्य विषयः अस्तु तत्र कारणम् अस्ति
संयोगः अपि कारणम् अस्ति संयोगः अपि कारणम्
संयोगः अपि कारणं भवति तत्र तद् न भवति चेत् कपालद्वयं भवेत् अथवा
चक्रं
बहवः कपालः भवेन्
कुलालः भवेत् सर्वं भवति चेत्
सर्वं भवति चेदपि घटोत्पत्तिः न भवति इति अस्तु तथापि तु दण्डादीनां कारणता न अपगच्छति हा अस्तु तत् तत्र तत् भवेत् किन्तु दण्डादीनाम् इत्युक्ते तत्र दण्डः चक्रं कपालः तेषां कारणता तु न अपगच्छति तत् तत्तु अस्ति एव
अस्माकं चिन्तनमस्ति वयं कारणमिति उक्तवन्तः किन्तु अत्र कार्यं न उत्पद्यते तर्हि किं कारणम् अस्ति अथवा नास्ति इति संशयः मास्तु कारणता तु अस्ति न अपगच्छति कारणता नास्ति इति स्थितिः न किमर्थं
सर्वकारणसत्त्वे हि पदार्थेभ्यः कार्यम् उत्पद्यते अस्तु इदानीं अस्मिन् परिच्छेदे संयोगः भवेत् इति निरूपितवन्तः विशेषः
इति तादृशमस्ति केवलं तत्र नाम तत्र दण्डः घटं प्रति कारणं दण्डः अस्ति चेत् घटः उत्पद्यते वा न
तत्र महोदय एवमपि वक्तुं शक्नुमः वा तत्र दण्डः अस्ति चक्रम् अस्ति किन्तु दण्डचक्रयोः संयोगः न भवति चेत् घटः न उत्पद्यते इति अपि
तत्र नाम अतः एव तत्र यद्यपि वयं कारणकार्यभासम्बन्धः यदा चिन्तयामः एकम् अस्ति कारणम् अन्यतति कार्यम् इति चिन्तयामः तत्र पदार्थद्वयमेव भवति किन्तु कार्यस्य उत्पत्तिः केवलम् एकेन कारणेन न भवति अनेकानि कारणानि साधारणतया भवन्ति नाम तत्र घटः घटं प्रति कपालः कारणं सत्यं किन्तु यत्र कपालः अस्ति तत्र घटः उत्पद्यते इति वयं न वक्तुम् इच्छामः यतोहि केवलं कपालः अस्ति चेत् घटस्य उत्पादनं न भवति तत्र सर्वकारणसत्त्वे नाम कारणसामग्री इति भवति नाम कारणस्य समूहः एकमेव कारणम् इति न वक्तुं शक्नुमः तत्र कारणसामग्री तत्र सर्वकारण तत्र समूहः नाम दण्डः चक्रं कपालः कुलालः जलम् एतत् सर्वं भवेत् अपि ईश्वरः तत्र साधारणकारणम् अपि तत्र विशेषकारणम् इति अग्रे भवति तत्र ईश्वर इच्छा सर्वम् अस्ति ज्ञानं सर्वं भवति चेदेव तत्र घटस्य उत्पत्तिः भवति अतः
भवति
हा अतः यद्यपि वयं वदामः तत्र घटं प्रति कपालः कारणं तेन न चिन्तयतु अस्तु कपालः अस्ति तर्हि वयं किं चिन्तयामः कपालः अस्ति तर्हि घटः उत्पद्यते इति तादृशं वयं न वक्तुम् इच्छामः तयोः मध्ये कारणकार्यभावः अस्ति एकं सति अन्यद् भवति एकम् असति अन्यत् न भवति तादृशम् अस्ति कारणतासम्बन्धः अस्ति किन्तु तेन वयं न वक्तुम् इच्छामः कपालः अस्ति चेत् घटः उत्पद्यते इति नास्ति घटः कदा उत्पद्यते यदा सर्वकारणसामग्री सर्वकारणानि सन्ति तदा एव घटस्य उत्पादनं भवति सर्वकारणसत्त्वैः पदार्थेभ्यः नाम दण्डचक्रकपाल एतत् सर्वेभ्यः तस्मात् पदार्थात् अथवा तेभ्यः पदार्थेभ्यः कार्यम् उत्पद्यते इति अस्तु समीचीनम् अस्तु अग्रे तर्हि तत्र अशोक महोदय अग्रे
किञ्च दण्डः घटकारणम् इति अवधार्य ज्ञात्वा कश्चित् अत्यन्तं क्षीणं शलाकातुल्यं दण्डत्वजातिमन्तमादाय चक्रभ्रमणं चिकीर्षति चेत् किं भवेत् चक्रभ्रमणं न तावत्ता अपि च न ब्रूमो वयं दण्डः घटं प्रति न कारणम् इति किन्तु योग्यं स्थूलं दण्डम् आदाय यतस्वेति उपदिशामः पूर्वत्र दण्डादिसत्त्वे अपि कपालद्वयसंयोग अभावात् प्रकृते च योग्यदण्ड अभावात् घट उत्पत्तिः नास्ति इति अस्ति कारणसत्त्वे अपि न कार्यम् इति अन्वयव्यभिचारः यदि पूर्वं यदि सर्वाणि कार्याणि नास्ति कार्य उत्पत्तिः नास्ति इति वक्तव्यम् इदानीं यदि कारणम् अस्ति चेदपि यदि उपायं सम्यक् नास्ति तर्हि कारणं न भवति इति वक्तव्यम् इति अहं चिन्तयामि प्रथमवाक्यमस्ति किं च दण्डः घटकारणम् इति अवधार्य ज्ञात्वा कश्चित् अत्यन्तं क्षीणं शलाकातुल्यं दण्डत्वजातिमन्तम् आदाय चक्रभ्रमणं चिकीर्षति चेत् किं भवेत् चक्रभ्रमणं न अहं चिन्तयामि यदि दण्डम् अल्पम् अस्ति
एकवारं महोदय
किञ्च दण्डः घटकारणम् इति अवधार्य नाम ज्ञात्वा इति चिन्तयामि
तदेव अस्ति अतः कश्चित् ज्ञात्वा किं ज्ञात्वा दण्डः घटं प्रति कारणम् इति ज्ञात्वा सः किं करोति
अतीत अल्प
क्षीणं समीचीनं
क्षीणं
शलाकातुल्यं नाम शलाकातुल्यं दण्डत्वजातिर्मन्तम् तत्र दण्डत्वजातिमन्तम् इति तत्र किम् अस्ति मन्तम् आदाय नाम
प्रायः दण्डत्वजाति अस्ति
नाम तत्र बुद्धिमान् इति प्रथमविभक्ति बुद्धिमन्तम् इति द्वितीयविभक्ति कर्मपदम्
अस्तु
आदाय इति अस्ति आदाय किम् आदाय अतः कर्मपदं पूर्वम् अस्ति जातिमन्तम् आदाय जातिमान् जातिमन्तम् आदाय कीदृशजातिमन्तं दण्डत्वजातिमन्तं नाम तत्तु अत्यन्तं क्षीणं शलाकातुल्यम् अस्ति दण्डः एव अस्ति यतोहि दण्डत्वजातिमान् अस्ति तस्य जाति दण्डत्वजातिः एव नाम दण्डः एव किन्तु दण्डः तु अस्ति किन्तु दण्डः कीदृशः अस्ति शलाकातुल्यम् अस्ति क्षीणं शलाकातुल्यमस्ति लघु बहु लघु अस्ति क्षीणमस्ति तं तादृशं दण्डम् आधाय चक्रभ्रमणं चिकीर्षते चेत् चिकीर्षते नाम कर्तुम् इच्छति चक्रभ्रमणम् इच्छति कर्तुम् इच्छति चेत्
घटः न उत्पद्यते
किं भवेत् चक्रभ्रमणम् एव न भवति
कर्तुं न शक्नोमि
शक्नुमः चक्रभ्रमणं तु न भवति अतः
तावता अपि च न ब्रूमो नाम वदामि
वक्तुं ब्रूमः न ब्रूमः नाम अभयं वयं न ब्रूमः वयं न वदामः
दण्ड घटं प्रति न कारणम् इति
नाम इदानीं तत्र कोऽपि एतत् करोति भवान् उक्तवान् दण्डः घटं प्रति कारणं इदानीम् अहं दण्डं दण्डत्वजातिमान् अत्र अस्ति तम् आधाय तं स्वीकृत्य अहं चक्रभ्रमणं कर्तुम् इष्टवान् किन्तु चक्रभ्रमणं न अभवत् तर्हि भवान् कथं वदति तत्र दण्डः घटं प्रति कारणं चक्रभ्रमणमेव न भवति तर्हि कथं घटं प्रति कारणम् इति पृच्छति चेत् वयं वदामः न दण्डः तु घटं प्रति कारणमेव तत्र नास्ति कारणं नास्ति इति न अङ्गीकर्तुं शक्नुमः कारणम् एव अस्ति किन्तु अतः तत्र समाधानं किं वदामः
योग्यं स्थूलं हा कर्तुम् अर्हति यतस्वेति इति यतस्वेति यतस्व इति वा यतस्व
तत्र यतस्व 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 इति तत्र लोट्लकारः इति मन्ये
यतन्ति योगस्व इति भगवद्गीतायां प्रयत्नं करोति इति
हा प्रयत्नं यततु हा यततु हा यत्नं यतस् हा यतस्व इति उपदिशामः इति वदामः
पूर्वत्र दन्तादिसत्त्वे अपि कपालद्वयसंयोग अभावात् प्रकृते च योग्यदण्ड अभावात् घट उत्पत्तिः नास्ति इति अस्ति कारणसत्त्वे अपि न कार्यमिति अन्वयव्यभिचारः पूर्वं अन्वयव्यभिचारः अस्ति यतोहि कारणमस्ति किन्तु सर्वाणि कारणानि नास्ति नाम कपाल द्वयसंयोगः न भवति अतः अन्वयव्यभिचारः अस्ति प्रकृते उदाहरणे योग्यदण्डः नास्ति अतः अन्वयव्यभिचारः अस्ति
हा अत्र समीचीनं नाम कारणम् अस्ति किन्तु कार्योत्पत्तिः न अभवत् यतोहि योग्यदण्डः नास्ति अस्मिन् उदाहरणे पूर्वस्मिन् उदाहरणे तत्र कपालद्वयसंयोगः न अभवत् इति कारणात् तत्र घटस्य उत्पत्तिः न अभवत् अतः कारणम् अस्ति किन्तु कार्यं नास्ति अतः अन्वयव्यभिचारः तत्र अस्ति इति अस्ति समीचीनं हा अतः तत्र कारणकार्यसम्बन्धः कार्यकारणसम्बन्धः यत्र वर्तते अथवा यत्र अस्ति इति चिन्तनं यत् अस्माकं सन्देहः अस्ति तत्र अन्वयसहचारज्ञानं तु आवश्यकं हा इति वयम् इदानीं ज्ञातुं शक्नुमः अस्तु इदानीम् अग्रे तत्र हा समयः तु अस्ति तर्हि तत्र पुनः तत्र विमला भगिनी अग्रे पठति वा एवं च
एवं च अन्वयसहचारज्ञानं कारणताग्रहे आवश्यकम् परन्तु क्वचित् अन्वयसहचारः न ज्ञायते अपि तु अन्वयव्यभिचारः ज्ञायते चेदपि न कारणत्वग्रहे अत्यन्तं क्लेशः अग्रे पठनीयं यदि तु व्यतिरेकव्यभिचारज्ञानं भवति अर्थात् कारणत्वेन अभिमतस्य असत्त्वेपि कार्यम् उत्पद्येत तथा तदा कारणताज्ञानं नैव उत्पद्यते इति अत्र एवमस्ति यत् अन्वयसहचारज्ञानं कारणताग्रहे आवश्यकम् इत्युक्ते केन कारणेन किं कार्यम् अभवत् इति भविष्यति इति तदेव अन्वयसहचारज्ञानमस्ति तदवश्यम्
अवश्यम् अस्ति तत्र
कारणस्य कारणतायाः विषये
हा तत्र यत्र कार्यकारणसम्बन्धः कार्यकारणभावः अस्ति इति यत्र अस्माकं सन्देहः अस्ति तस्मिन् सन्दर्भे अन्वयसहचरज्ञानम् आवश्यकम् अस्ति.
परन्तु क्वचित् अन्वयसहचारः न ज्ञायते अपि तु अन्वयव्यभिचारः ज्ञायते चेदपि च कारणत्वगृहे अत्यन्तं क्लेशः. परन्तु क्वचित् अन्वयसहचारः न ज्ञायते. कस्य कारणं किम् इति न ज्ञायते. किं कस्य कार्यस्य कारणं किमपि न ज्ञायते.
केवलं तत्र अन्वयसहचारः न अस्ति न वा इति न जानाति.
क्वचित् न ज्ञायते. अस्तु. अपि तु अन्वयव्यभिचारः ज्ञायते तदापि न कारणत्वगृहे अत्यन्तं क्लेशः. इत्युक्ते यदि वयम् अन्वयसहचारं न ज्ञास्यामः परन्तु अन्वयव्यभिचारस्य ज्ञानमस्ति तदापि किमपि क्लेशः नास्ति कारणकार्यभावस्य अवधारणत्वे. तथापि किं महोदय?
तथैव अस्ति भगिनि.
केन कारणेन किं कार्यं भवति इति ऊहां कर्तुं शक्नुमः. यद्यपि अन्वयसहचारज्ञानं नास्ति यदि व्यभिचारज्ञानः अस्ति तदा कारणत्वगृहे अत्यन्तं क्लेशः नास्ति.
चेदपि न कारणत्वगृहे
अत्यन्तं
क्लेशः.
यदि तु यदि तु व्यतिरेकव्यभिचारज्ञानं भवति अर्थात् कारणत्वेन अभिमतस्य असत्त्वे अपि यथा तन्तुः नास्ति कार्यम् उत्पद्यते घटः उत्पद्यते तदा कारणताज्ञानं नैव उत्पद्यते इति तदा घटोत्पत्तेः कारणं किम् इति कदापि न वयं ज्ञास्यामः. इति उदाहरणत्वेन तथा.
तर्हि अन्वयसहचारज्ञानं यत्र अस्ति तत्तत्तु आवश्यकमस्ति कारणताग्रहे. किन्तु क्वचित् कुत्रचित् किम् अस्ति सर्वदा इति नास्ति. सर्वदा इति नास्ति. क्वचित् क्वचित् नाम
कुत्रचित्
कदाचित् किं भवति. अन्वयसहचारज्ञानं नास्ति किन्तु अन्वयव्यभिचारज्ञानम् अस्ति. नाम तत्र कारणमस्ति कार्यं न उत्पद्यते चेदपि तत्र कारणत्वग्रहे अत्यन्तं क्लेशः नास्ति. यतोहि वयम् इदानीं दृष्टवन्तः नाम तत्र वयं जानीमः तत्र दण्डः अस्ति किन्तु दण्डः घटं प्रति कारणं न उत्पद्यते. अन्वयव्यभिचारः भवति किन्तु तेन वयं न वदामः अस्तु तर्हि दण्डः घटं प्रति कारणं नास्ति इति अस्माकं सन्देहः न भवति. अतः कारणत्वगृहे अत्यन्तं क्लेशः तत्र नास्ति. नास्ति. इदानीं यदि तु किन्तु व्यतिरेकविचारज्ञानं
भवति चेत् कारणत्वेन अभिमतस्य असत्त्वे अपि यदि कारणं नास्ति तथापि कार्यं भवति इत्यस्मिन् स्थले कारणताज्ञानं नैव उत्पद्यते. किं कारणम् इति कदापि न ज्ञास्यामः. यदा कारणं
न किं कारणमिति न प्रथमपदार्थः कारणं नास्ति तद् तत्र कारणताज्ञानं न भवति. नाम एतत् कारणम् इति तद् ज्ञानं न उद्भवति. कारणम् इति अभिमतं वयं चिन्तयामः.
यत्किमपि वयं चिन्तयामः
नाम तन्तुः घटं प्रति कारणमिति चिन्तयामः. तन्तुः नास्ति किन्तु घटः उत्पादनं भवति तदा तस्मिन् सन्दर्भे किं वदामः. अस्तु तत्र कारणताज्ञानं नाम तन्तुः घटं प्रति कारणम् इति तादृशज्ञानं न उत्पद्यते इति चिन्तयामि. अस्तु. अशोक महोदय धन्यवादः भगिनि. अशोक महोदय धन्यवादः.
विपरीतया चिन्तयामि महोदय.
अस्तु वदतु महोदय.
परन्तु कुत्रचित् अन्वयसहचारः न ज्ञायते अपि तु अन्वयव्यभिचारः ज्ञायते चेदपि न कारणत्व ग्रहे अत्यन्तं क्लेशः क्लेशः नास्ति इति उक्तम् अहं चिन्तयामि क्लेशः अस्ति इति यतोहि अन्वयव्यभिचारः अस्ति कारणम् अस्ति किन्तु कार्यः नास्ति अतः क्लेशः अवशिष्यते यतोहि कारणम् अन्यकारणानि प्रायः न सन्ति न तु उपायं सम्यक् नास्ति इति क्लेशः भवति खलु
न न अतः एव महोदय तत्र नाम अस्माकं चर्चा कीदृशी आसीत् इत्युक्ते पदार्थद्वयं स्वीकृत्य वयं कार्यकारणभावः अस्ति इति उक्तवन्तः तत्र लेखकस्य इच्छा का इत्युक्ते केवलम् एकमेव कारणं कार्यं प्रति इति मा चिन्तयतो यद्यपि तत्र कार्यकारण तत्र सम्बन्धनिर्धारसमये एतादृशं वदामः तत्र अन्वयसहचारः अस्ति अपि व्यतिरेकसहचारः वर्तते एतत् सर्वं वदामः किन्तु स्थितिः का इत्युक्ते तत्र एकस्य कारणस्य सत्त्वे तत्र कार्यं भवति इति न अन्यानि कारणानि अपि सन्ति तत्र कारणसामग्री कारण सर्वकारणसमूहः भवति यदा ते सर्वे सन्ति तदा एव तत्र कार्यम् उत्पद्यते अतः यद्यपि तत्र अन्वयसहचारः भवति सर्वदा तत्र तत्र हा अस्तु तत्र जानीमः तत्र तत्र यथा वयं पूर्वं भवानेव पठितवान् खलु नाम तत्र दण्डः अस्ति किन्तु घटः न उत्पद्यते तत्र अन्वयव्यभिचारः भवति किन्तु तत्र क्लेशः अस्माकं क्लेशः नास्ति खलु
अस्ति यदि कारणम् अस्ति वा न वा इति प्रश्नः खलु अहं चिन्तयामि एतद् अन्वयव्यभिचारं ज्ञात्वा कश्चिदपि न भवितुं शक्नुमः कारणं वा न कारणं वा इति न वक्तुं शक्नुमः अतः कारणत्वे क्लेशः भवति इति चिन्तयति
इति भवतः मतम् अस्तु महोदय अस्तु हा किञ्चित् चिन्तनीयमस्ति महोदय हा प्रायश तत्र अग्रिमे वर्गे किञ्चित् अहमपि चिन्तयामि अस्मिन् विषये भवानपि किञ्चित् चिन्तयतु यतोहि प्रायश तत्र हा सम्यक् रीत्या अवगतवन्तः इति नास्ति अत्र मम मनसि तत्र चिन्तनीयं किञ्चित् चिन्तनीयम् अस्ति हा
अतः यदि व्यतिरेकव्यभिचारः अस्ति तर्हि कारणं नास्ति इति ज्ञानम् उत्पद्यते इति अहं चिन्तयामि यतोहि
महोदय तथैव दत्तमस्ति किन्तु तत्र कारणं नास्ति इति ज्ञानम् उत्पद्यते इति न उक्तवान् कारणम् इति ज्ञानं न उत्पद्यते इति उक्तम्
अस्तु ज्ञानं न उत्पद्यते अन्यः विषयः न कार्यमिति ज्ञानम् उत्पद्यते अन्यविषयः खलु
आमामामाम् अत्र किम् उक्तम् इत्युक्ते कारणता कारणं नास्ति इति ज्ञानं न उत्पद्यते अन्यत् कारणम् इति ज्ञानम् उत्पद्यते तद्भिन्नं यथा भवान् उक्तवान् सत्यम्
अस्तु तदेव
एका विनन्ति अस्ति अत्र पुनः एकवारम् एवञ्च ततः आरभ्य भवान् कृपया वदति वा किञ्चित्
सत्यं भगिनि अस्मिन् विषये मम अपि तत्र किञ्चित् क्लेशः अस्ति अतः तत्र अहं चिन्तितवान् तत्र एतस्य भागस्य प्रायशः तत्र अग्रिमे वर्गे तत्र सर्वे चिन्तयामः किञ्चित् अपि पुनरपि तत्र अग्रिमे वर्गे किञ्चित् चर्चयामः अस्मिन् विषये यतोहि मम मनसि अपि किञ्चित् क्लेशः अस्ति, अतः तत्र प्रायशः तत्र सम्यक् रीत्या वक्तुं न शक्नोमि इति चिन्तयामि. हा समीचीनं वा भगिनि?
अस्तु महोदय.
अस्तु, तर्हि तत्र अतः तत्र किञ्चित् तस्मिन् विषये चिन्तयामः, पुनः तत्र अग्रिमे वर्गे तत् पठामः, अपि चर्चयामः तत्र एतावत् किमस्ति इति चर्चयामः. अस्तु, इदानीं समयः तु अस्ति, अतः तत्र अग्रे सरामः, अग्रिमे वर्गे पुनः तत्र आगच्छामः. तर्हि तत्र अग्रे तत्र उषा भगिनी अग्रे पठति वा?
आं महोदय. असमवेतगुणानां ज्ञानं कथम्? असमवेतगुणानां ज्ञानं कथम्? तथा च अन्वयव्यतिरेकव्यभिचारज्ञान अभावे, अन्वयव्यतिरेकव्यभिचारज्ञान अभावे अभावे सति अन्वयव्यतिरेकसहचारज्ञानम् उत्पद्यते. उत्पद्यते नास्ति. अन्वयव्यतिरेकव्यभिचारज्ञान अभावे, ओ अभावे, ओके, अभावे सति अभावे सति अन्वयव्यतिरेकसहचारज्ञानम् उत्पद्यते. तेन च कारणत अग्रहः भवति. कारणतग्रहः भवति. एतादृशकारणताग्रहे ग्रहे सति यत्र क्वचित् गन्धः अनुभूतः पृथिवी न उपलब्धा चेत् अपि तत्र सा अस्ति इति अनुमीयते. अन्वयव्यतिरेकव्यभिचारज्ञान अभावे, अन्वयव्यतिरेकव्यभिचारज्ञान अभावे
नाम अन्वय व्यभिचारः,
अपि च व्यतिरेकव्यभिचारज्ञानम् अपि नास्ति. तत्र अन्वयव्यतिरेकसहचारज्ञानम् उत्पद्यते.
तत्र एव
अन्वयसहचारज्ञानम् अपि च व्यतिरेकसहचारज्ञानम् उत्पद्यते. तेन च कारणताग्रहः भवति. कारणं किं कार्यस्य कृते इति ज्ञानं भवति, यतोहि अन्वयसहचारज्ञानम् अपि च व्यतिरेकसहचारज्ञानम् अस्ति.
यत् अन्वयसहचारः व्यतिरेकसहचारज्ञानम् अस्ति तत्र एव कारणता अस्ति इति जानीमः.
एतादृशकारणताग्रहे सति कारणं ज्ञातवान् इति चेत् अपि एतादृशकारणताग्रहे सति यत्र क्वचित्
नाम यत्र वयं जानीमः कार्यकारणभावः इति वर्तते इति सम्यक् रीत्या जानीमः, तत्र
क्वचित् गन्धः अनुभूतः पृथिवी न उपलब्धा चेत् अपि तत्र नास्ति इति अनुमीयते. तत्र सा अस्ति इति अनुमीयते. यत्र क्वचित् गन्धः अस्ति अनुभूतः पृथिवीत्वं न उपलब्धा चेत् अपि, यत्र गन्धः अनुभूतः पृथ्वीत्वम् अस्ति खलु, पृथ्वीत्वम् अस्ति इति अनुमीयते, अनुमानं कर्तुं
गन्धः एव तत्र अनुभूतः, गन्धः एव तत्र गन्धस्य प्रत्यक्षज्ञानं भवति. प्रत्यक्षज्ञानं भवति. पृथ्वी न उपलब्धा नाम
पृथ्वी न दृश्यते.
पृथिव्याः प्रत्यक्षज्ञानं यत्र नास्ति चेदपि
पृथ्वीत्वम् अस्ति इति अस्माकं अनुमानं भवति.
तत्र सा अस्ति, सा पृथ्वी,
सा पृथ्वी अस्ति इति अनुमानं
भवति अस्माकम् अनुमानं भवति. नाम अनुमानज्ञानं भवति तदा पृथ्वी अस्ति. अतः तत्र अन्वयसहचारः, व्यतिरेकसहचारः, अन्वयव्यभिचारः, व्यतिरेकव्यभिचारः, यदा वयं तत्र अनुमानज्ञानं नाम तत्र ज्ञानं चतुर्विधम् इति उक्तवन्तः, तत्र प्रत्यक्षज्ञानम्, अनुमानज्ञानम् अपि, उपमानज्ञानम् अपि, शाब्दबोधः इति तत्र चतुर्विधज्ञानं, ज्ञानस्य चतुर्विधः विधमस्ति. तत्र प्रत्यक्षज्ञानं तत्र इन्द्रियैः प्राप्तं ज्ञानं, किन्तु यत् अत्र पृथिव्याः तादृशप्रत्यक्षज्ञानं नास्ति, किन्तु पृथ्वी अपि गन्धः, तयोः मध्ये कार्यकारणभावः अस्ति इति जानीमः. अस्माकं दृढनिर्धारः अस्ति तत्र कार्यकारणभावः वर्तते, यतोहि गन्धस्य आश्रयः पृथ्वी, गन्धः अन्यत्र न भवति. नाम गन्धस्य समवायीकारणं, समवायेन गन्धः पृथिव्यां समवायसम्बन्धः तु तत्र तस्य छेदः न भवति खलु. नाम संयोगः तत्र तस्य विभागः भवति, पृथक् कर्तुं शक्नुमः संयोगः, किन्तु समवाय तु तत्र न तादृशः सम्बन्धः नास्ति. तत्र समवायसम्बन्धेन ययोः मध्ये सम्बन्धः समवाय अस्ति, तत्र एकः अस्ति चेत् द्वितीयः भवेत्. अतः तत्र गन्धः अस्ति चेत् तत्र पृथ्वी भवति एव इति, अतः तत्र सा अस्ति इति वयम् अनुमानं कर्तुं शक्नुमः. अस्तु, समीचीनं भगिनि. अस्तु, अग्रे इदानीं तत्र ओ समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रे तत्र चन्द्रमती भगिनी, नमस्कारः, भवती पठितुम् इच्छति वा अग्रे?
एवं च उपवनात् समागते वारे तादृशे च जले यः सुरभिगन्धः अनुभूयते सः वस्तुतः पृथ्व्याः एव, परं सा पृथ्वी जलेन संयुक्ता. पृथ्वीकणाः जले विद्यमाना अपि अतिसूक्ष्म न चक्षुषा गृह्यन्ते. पृथ्वी गन्धः तु समवायेन पृथ्व्यां स्थिते अपि स्वसमवायी संयुक्त सम्बन्धेन जले स्थितः स्वप्रत्ययं जनयति. एवं च उपवनात् समागते वारे तादृशे च जले यः सुरभिगन्धः अनुभूयते सः वस्तुतः पृथ्व्याः एव. समीप उपवनात् इत्युक्ते समीपस्थवनं वा उपवनं
तत्र
वाडिका एव
इति चिन्तयामः.
वाडिकातः सुगन्ध सुरभिगन्धः आगच्छति चेत् वयं वातः आगच्छति, किन्तु तस्मिन् वादे सुरभि सुगन्धः अस्ति इति कारणेन वयं किम् अनुमानं कर्तुं शक्यते. वस्तुतः पृथ्व्याः गुणः एव गन्धः, अतः पृथ्वी अस्ति इति वस्तुतः पृथ्व्याः एव तादृशगन्धः.
गन्धः तु पृथिव्याः गन्धः एव वयम्
अनुमानं
गन्धः पृथिव्याः गन्धः एव अनुभूयते तत्र
अनुभूयते
सः गन्धः यः सुरभिगन्धः अनुभूयते सः सः सुरभिगन्धः वस्तुतः पृथिव्याः सुरभिगन्धः एव
परं सा पृथ्वी जलेन संयुक्ता तद् कथं भवति पृथ्वी जलेन संयुक्तः भवति अतः एव वायौ तादृश सुगन्धगन्धः वयम् अनुभूयमानः भवति
वायौ अथवा जले च जले तादृशे च जले वाते तादृशे च जले हा तत्र तत्र पृथ्वी अस्ति पृथ्वी जले संयुक्ता अस्ति
पृथ्वी कणाः जले विद्यमाना अपि अतिसूक्ष्मत्वात् न चक्षुषा गृह्यते पृथ्व्याः लघुकणाः जले संयुक्तः अस्ति तत्कारणेन वयं दृष्टिगोचरं
पृथ्वीकणाः जले विद्यमानाः ते सन्ति एव किन्तु अतिसूक्ष्मत्वात् तेषां परिमाणं
नेत्राभ्यां द्रष्टुं न शक्यते
किन्तु ते सन्ति
किन्तु वयम् अनुमानं कर्तुं शक्नुमः तत्र जनाः जलेन संयुक्तः अभवत्
जले सन्ति किन्तु
वयं तत्कारणेनैव
नाम तत्र ते सन्ति किन्तु चक्षुषा तेषां ग्रहणं न भवति
पृथ्वी गन्धस्तु समवायेन पृथिव्यां स्थितो अपि स्वसमवायी संयुक्तत्वसम्बन्धेन जले स्थितः स्वप्रत्ययं जनयति पृथिव्यां गन्धः समवायसम्बन्धेन वर्तते जले तत् नास्ति चेदपि संयुक्त सम्बन्धेन संयुक् जल पृथ्वी संयुक्तसम्बन्धेन अत्र जले अपि अथवा वायुः अपि गन्धः पृथिव्याः गन्धः स्वस्य प्रत्ययं जनयति जन पृथ्व्याः जन
प्रत्ययम्
अत्र जनयति
सुगन्धकारणेन नाम गन्धः पृथिव्याम् अस्ति खलु
अस्ति इति ज्ञानं जनयति
न न न पृथिव्याम् अस्ति खलु गन्धः पृथिव्याम् अस्ति केन सम्बन्धेन अस्ति पृथिव्यां
समवायसम्बन्धेन अस्ति
समवायसम्बन्धेन अस्ति इदानीं पृथ्वी अपि जलं तयोः मध्ये तत्र कीदृशसम्बन्धः संयोगसम्बन्धः तत्र जले तत्र सुगन्धः अस्ति सुरभिगन्धः अस्ति चेत् तत्र जले पृथिवीयकणाः सन्ति पृथ्वी अपि जलतयोः मध्ये संयोगसम्बन्धः पृथ्वी जलेन संयुक्ता संयोगसम्बन्धेन अस्ति पृथ्वी अतः पृथ्वी अपि जलं तयोः मध्ये संयोगसम्बन्धः अतः किं भवति तत्र गन्धः अस्ति गन्धः पृथिव्यां तत्र संयोग तत्र समवायसम्बन्धेन अस्ति अपि पृथ्वी अपि तत्र जलं तयोः मध्ये संयोगसम्बन्धः तत्र क्षम्यतां तत्र संयोगसम्बन्धः तत्र संयोगसम्बन्धः अस्ति तर्हि तत्र अत्र संयोगसम्बन्धः अत्र
गन्धः जले
अतः तत्र गन्धः जले अस्ति इति वक्तुं शक्नुमः कीदृशसम्बन्धः इत्युक्ते तत्र वयं वदामः
स्वसंयुक्तसम्बन्धेन
जले स्थितः गन्धः जले स्थितः अस्ति केन सम्बन्धेन जले स्थितः अस्ति स्वसमवायि संयुक्तत्वसम्बन्धेन जले स्थितः अस्ति इति कृत्वा तत्र स्वप्रत्ययं जनयति नाम स्वप्रत्ययम् इत्युक्ते
स्वसमवायः
न स्व इत्युक्ते तत्र गन्धः एव गन्धः इति स्व स्वम् इत्युक्ते गन्धः तत्र एकवारं वदामि किन्तु अग्रिमे वर्गे सम्यक् रीत्या चर्चयामः नाम स्वम् इत्युक्ते गन्धः समवायी नाम यस्मिन् समवायसम्बन्धेन अस्ति आश्रयः समवायसम्बन्धस्य आश्रयः तर्हि गन्धस्य समवायी इत्युक्ते गन्धस्य आश्रयः येन सम्बन्धेन तत्र समवायसम्बन्धेन यस्मिन् अस्ति सः अत्र या तत्र अस्ति अत्र अस्ति पृथ्वी गन्धः समवायसम्बन्धेन पृथिव्याम् अस्ति अतः स्वसमवायी इत्युक्ते पृथ्वी पृथ्वी संयुक्तत्वात् संयुक्तसम्बन्धेन नाम पृथ्वी संयोगसम्बन्धेन जले अस्ति इति वक्तुं शक्नुमः अतः संयुक्ता अस्ति पृथ्वी जलेन सह अतः संयुक्तत्वात् तादृशसम्बन्धेन गन्धः जले वर्तते इति अस्ति अतः गन्धः पृथिव्यां समवायसम्बन्धेन अस्ति किन्तु जले स्वसमवायसंयुक्तत्वसम्बन्धेन अस्ति न तत्र परम्परासम्बन्धः इति वदामः किन्तु तत् सूक्ष्मरीत्या नास्ति स्थूलरीत्या वदामश्चेत् परम्परासम्बन्धः इति वदामः यत्र सम्बन्धद्वयमस्ति सम्बन्धस्य परम्परा अस्ति तत्र परम्परासम्बन्धेन वर्तते किन्तु सूक्ष्मरीत्या वक्तुमिच्छामश्चेत् तत्र स्वसमवायसंयुक्तत्वसम्बन्धेन इति अस्ति समीचीनम् अस्तु तर्हि अग्रिमे सप्ताहे तत्र अग्रिमवर्गे अस्य चर्चा भवेत् अस्तु तर्हि सर्वे चिन्तयन्तु तस्मिन् विषये अहमपि चिन्तयामि अग्रिमे वर्गे चिन्तयामः तर्हि अस्तु समीचीनं धन्यवादाः अग्रिमे वर्गे मिलामः नमस्कारः
धन्यवादः धन्यवादः नमस्कारः।